इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्य वार्ताः राष्ट्रपतिः द्रौपदी मुर्मुवर्या जलसुरक्षायै प्रयत्नानाम् आह्वानम् अकरोत् षष्ठम् राष्ट्रिय जल पुरस्कारञ्च प्रदत्तवती महाराष्ट्र प्रथमस्थानम् प्राप्नोत् आन्ध्रप्रदेशे संघट्टे माडवी हिडमा इत्यनया सह षट् माओवादिनः मारिताः रक्तदुर्ग विस्फोटन प्रकरण सन्दर्भे दिल्ल्याम् अल फलाह समूहेन सम्बद्धेषु पञ्चविंशतिस्थलेषु प्रवर्तन निदेशालयेन निरीक्षणम् विहितम् भारतम् विकसितदेशानाम् आवाहनम् अकरोत् यत् ते जलवायु परिवर्तनमुद्दिश्य आधिक्येन सहयोगम् कुर्युरिति अपि च बहिष्कृतायाः बांग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत् अथ वार्ताः विस्तरेण अद्यत्वे जलवायु परिवर्तनेन जलचक्रे अपि प्रभावः भवतीति अवधानं कृत्वा राष्ट्रपतिः द्रौपदी मुर्मू इत्येषा जलस्य लभ्यतां सुरक्षाञ्च करणाय सर्वान् मिलित्वा कार्यं कर्तुम् आग्रहम् अकरोत् नवदेहल्यां षष्ठं राष्ट्रिय जल पुरस्कारं 2024 अथ प्रथमं जलपञ्चायत जलभागीदारीति पुरस्काराञ्च ददन्ती राष्ट्रपतिः अवदत् यत् देशे जलस्य कुशलप्रयोगः आवश्यकः अस्ति यतोहि जनसङ्ख्यायाः दृष्ट्या जलसम्पदः परिमिताः सन्ति सा पुरस्कारविजेतृभ्यः जलसंरक्षणार्थं कृतप्रयासानां कृते धन्यवादान् दत्तवती गतवर्षे प्रारब्धस्य जलसंरक्षणजनसहभागित्वकार्यक्रमान्तर्गतं सार्धत्रिमिलियनाधिकाः भूजलपुनर्भरणसंरचनाः निर्मिताः इति राष्ट्रपतिः अवधानं दत्तवती
भूजल के स्तर को बनाए रखना बहुत महत्वपूर्ण है मुझे ये जानकर प्रसन्नता हुई है कि पिछले वर्ष शुरू किए गए जल संचय जन भागीदारी कार्यक्रम के तहत 34 लाख से अधिक आज तो 35 लाख बताया गया है अधिक ग्राउंड वाटर रिजर्व स्ट्रक्चर्स का निर्माण किया जा चुका है सर्कुलर वाटर इकोनॉमी की प्रणालियों को अपनाकर सभी इंडस्ट्रीज तथा अन्य स्टेक होल्डर्स जन संसाधन का प्रभावी उपयोग कर सकते हैं
कार्यक्रमेस्मिन् संबंधित मंत्रिणः अपि उपस्थिताः आसन् माओ विरोधी कार्येषु महत्वपूर्ण विकासरूपेण आन्ध्रप्रदेशस्य अल्लूरी सीता रामराजु मण्डलस्य आन्ध्र छत्तीसगढ़ ओडिशा त्रिसन्धिस्थल समीपे मेरेडुमिल्ली वनेषु प्रातः शीर्षसेनापतिना माडवी हिडमया सह षड् माओवादिनः मारिताः आन्ध्रप्रदेशस्य पुलिसमहानिदेशकः हरीशकुमारगुप्तः अवदत् यत् समूहस्य सञ्चरणविषये विश्वसनीयसूचनाः प्राप्य संघट्टः अभवत् सः इत्यपि अवदत् यत् अभियानकाले कोऽपि सुरक्षाकर्मचारी व्रणितः अपि न अभवदिति ईडी इत्याख्यः प्रवर्तननिदेशालयः अद्य दिल्लीक्षेत्रे अल फलाह समूहेन सम्बद्धेषु पञ्चविंशतितः अधिकेषु परिसरेषु अन्वेषणम् अकरोत् अन्वेषणोपक्रमः रक्तदुर्गस्फोटेन सह वित्तीय अनियमितताभिः सम्बद्धमस्ति प्रधानमन्त्री नरेन्द्रमोदी अद्य केन्द्रीयमन्त्रिणः भूपेन्द्रयादवस्य लेखं समुल्लेखयन् बृहत्तरपारदर्शितया सामान्यमानकैश्च सह वैश्विकजलवायुचक्रस्य पुनर्निर्माणाय भारतीय अवसरान् अधोरेखितवान् सामाजिकप्रसारमाध्यमे प्रधानमन्त्री अलिखत् यत् भारतस्य जलवायु वित्तवर्गीकरणस्य प्रारूपम् तस्य वर्धमान देशीय हरितवित्तञ्च व्यावहारिक नेतृत्वस्य उदाहरणरूपेण कार्यं करोति भविष्ये च अधिकप्रभावशाली वैश्विकसंरचनायाः मार्गदर्शने साहाय्यं कर्तुं शक्नोति तेनोक्तं यत् विकसितदेशाः जलवायु परिवर्तनमुद्दिश्य आधिक्येन सहयोगं कुर्युरिति संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सम्मेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ओन् एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति प्रधानमन्त्री नरेन्द्रमोदी श्वः आन्ध्रप्रदेशस्य तमिलनाडुराज्यस्य च यात्रायां भविष्यति आन्ध्रप्रदेशस्य प्रवासे श्रीमोदी पुट्टापर्थी श्रीसत्यसाईबाबा इत्यस्य महासमाधिं गत्वा प्रणामं करिष्यति तस्य सम्मानार्थं स्मारकमुद्रां मुद्रापत्राणां समुच्चयं च लोकार्पयिष्यति। कार्यक्रमावधौ प्रधानमन्त्री सभामपि सम्बोधयिष्यति। पश्चात् सः तमिलनाडुराज्यस्य कोयम्बत्तूरनगरं गत्वा दक्षिणभारत प्राकृतिक कृषि शिखर सम्मेलनम् इत्यस्य उद्घाटनं करिष्यति। कार्यक्रमावसरे श्रीमोदी पीएम किसान इत्यस्य एकविंशतितमं पुटकमपि वितरिष्यति। उत्तरप्रदेशस्य सोनभद्रजनपदस्य बिलही मारकुण्डी इति कृष्णांगारतः अद्यपर्यन्तम् आहत्य सप्त शवानि प्राप्तानि सन्ति। सर्वाणि मृतशरीराणि अभिज्ञातानि सन्ति। सप्तसु षट् शवाश्च दाहिताः। आकाशवाण्या सह वार्तालापं कुर्वन् मण्डलदण्डाधिकारी श्री बी एन सिंहः अवदत् यद् दुर्घटनायां पीडितानां परिवाराणि केन्द्रराज्यसर्वकारयोः साहाय्यं प्राप्स्यन्तीति। यद्यपि उद्धारणसंस्थाः उद्धारणकार्यस्य परिपूर्णं कृतवत्यः, तथापि स्थलस्य द्वितीयनिरीक्षणानन्तरमेव तत्समाप्तं घोषयिष्यते। बिहारराज्ये एनडीए पक्षस्य नवनिर्वाचित विधायकाः श्वः पटनानगरे मिलित्वा स्वनेतृत्वं निर्वाचयिष्यन्ति। भाजपा जनतादल संयुक्तः लोकजनशक्ति पार्टी रामविलास इति हिन्दुस्तानी आवामी मोर्चा इति राष्ट्रिय लोकमोर्चा इत्येतेषां पञ्चघटकदलानां 2200 एनडीए विधायकाः सभायां भागं ग्रहीष्यन्ति। मुख्यमंत्री नीतीशकुमारः पुनः बिहारराज्ये एनडीए विधायकदलस्य नेतृत्वेन निर्वाचितः भवितुम् अर्हति। ततः एनडीए विधायकदलस्य नेता राज्ये नूतनं शासनं निर्मास्यति। अस्य वर्षस्य अन्ताराष्ट्रिय गीतामहोत्सवस्य भागरूपेण भारतीय दूतावासेन अद्यतनविश्वे भगवद्गीतायाः प्रासंगिकता इति विषये चर्चासत्रस्य आयोजनं कृतम्। नेपालदेशस्य SBCC इत्यस्य छात्राः शिक्षकाश्च भगवद्गीतायाः विषयैः प्रेरिताः सांस्कृतिकनृत्यं सङ्गीतप्रदर्शनञ्च कृतवन्तः। उत्सवोऽयं सप्ताहपर्यन्ताय भवति। अस्मिन् वर्षे दिसम्बर मासस्य प्रथमदिनाङ्कतः गीताजयन्ती इति दिवसादारप्स्यते। एतत् मुख्यतया हरियाणाराज्यस्य कुरुक्षेत्रे आचर्यते। भगवद्गीता भगवतः कृष्णेन कुरुक्षेत्रे अर्जुनाय प्रदत्तेति मन्यते। श्रीमद्भगवद्गीता प्राचीनकालादारभ्य हिन्दुधर्मावलम्बीनां दार्शनिकमार्गदर्शक आध्यात्मिकशिक्षाप्रदश्च ग्रन्थः अस्ति। संयुक्तराष्ट्रसङ्घस्य महासचिवः आन्टोनियो गुटेरेसः बांग्लादेशस्य बहिष्कृतप्रधानमन्त्रिणः शेख हसीना इत्यस्याः मृत्युदण्डस्य विरोधम् अकरोत्। संयुक्तराष्ट्रसङ्घस्य प्रमुखस्य प्रवक्ता स्टीफन दुजारिक इत्येषः स्वस्य दैनिकवार्ताहरसम्मेलनावसरे अवदत् यत् संयुक्तराष्ट्रसङ्घः सर्वविधपरिस्थितिषु मृत्युदण्डप्रयोगं विरुध्य वर्तते इति। अष्टसप्ततिवर्षीय राजनेत्रीं विरुध्य तस्याः अनुपस्थितौ ढाकानगरे देशस्य अन्ताराष्ट्रिय अपराधन्यायाधिकरणेन गतवर्षे छात्रनेतृत्वस्य विरोधप्रदर्शनावसरे कथित अपराधानां विषये विचारितः आसीत्। सा सम्प्रति निर्वासने निवसन्ती अस्ति। प्रवक्त्रा संयुक्तराष्ट्रसङ्घस्य मानवाधिकार उच्चायुक्तस्य बोल्कर टर्क इत्यस्य वक्तव्यम् उद्धृत्य उक्तं यत् केवलं बांग्लादेशस्य न्यायाधीशेन निर्मितेन स्थानीय न्यायालयेन मृत्युदण्डः दत्तः, यस्य नाम अन्ताराष्ट्रिय अपराध न्यायाधिकरणमिति आसीत्। येन सा मानवतां विरुध्य अपराधेषु दण्डिता अभवत्। एमनेस्टी इंटरनेशनल इति संस्थया बांग्लादेशस्य प्राक्तन गृहमन्त्रिणा सह शेख हसीनां विरुध्य गतवर्षस्य छात्रनेतृत्वस्य विरोधेन सह सम्बद्धानां मानवताविरोधि अपराधान् अधिकृत्य तयोरनुपस्थितौ मृत्युदण्डेन दण्डननिर्णयस्य ह्यः निन्दां कृतम्। एमनेस्टी इंटरनेशनल इत्यस्य महासचिवः अग्नेस काल मार्ड इत्यसः एकस्मिन् वक्तव्ये उक्तवान् यत् अयं निर्णयः न्यायस्य विफलतायाः प्रतिनिधित्वं करोतीति। भारतीय तटरक्षकदलं भारतीय जलक्षेत्रे अवैधतया मत्स्यपालनमुद्दिश्य 970 कर्मचारिभिः सह त्रीणि बांग्लादेशी मत्स्यनौकायानानि अपि गृहीतवान् इति वार्ताः।